अथ नवग्रहमन्त्राः। ॐ आसत्येन रजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्नो अग्न्यम् दूतम् वृणीमहे होतारम् विश्ववेदसौ। अस्य यज्ञस्य सकृतो कद्रुद्राय प्रचेतसे मेढुस्तमायतव्यसे ओचेमसन्तमगुम् हृदे आप्यायस्व समेतु ते विश्वतः सोमवृष्णयो भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषज अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजेः गौरीमिमायसलिलादितक्षत्यैकपदे विपदेशाचतुष्पदे अष्टापदे नवपदे बभूवुषे सहस्रा अक्षर परमे व्योवन् अग्निर्मूर्धा दिवः खगुत्पतिः पृथिव्या अयम् अपागुम् रेतागुंसि जिन्वते शोना पृथिवी भवानुक्षरा निवेशिने इच्छानः सर्म सप्रथाः क्षेत्रस्य पतिना वयगुम् हितेनेव जयामसे गामस्वम् पोषयित्र वासनो मृणा तीदृशे उद्भुज्यस्वाग्ने प्रजागुह्ये मिष्टा पूर्ते सगम् त्रिसेथामयम् च पुनः कृण्वग्स्त्वा पितरम् विवा नमन्वातागुंसे त्वैतन्त्वमेतौ इदम् विष्णुरुजक्रमे त्रेथा निदते पदौ समूढमस्य पागुंसुरे सहस्रशेरुषा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्त्वा अत्यधिष्ठद्दशाङ्गुलौ बृहस्पते अतियधर्हो अर्ह आद्युमद्विभाति कृतमज्जनेषु यद्येत यच्छव सत्त प्रजा तदस्मासु द्रविणम् देहि चित्रो इन्द्रमरुत्वह्य पाहि सोमम् यथा स्यार्याते अपि वस्तुतस्य तव प्रणीति तव सूरसर्वन्नापि वासन्ति कवयस्सु यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विसेमतः सुरुचो वेद आवह स बुद्ध्रिया उपमा अस्य विष्टा सदस्य यो निमसदस्य विवः शुक्रन्ते अन्यज्जदन्ते अन्यद्विषुरूपे अहने जौरिवासे विश्वा हि मायावसि स्वधावो भद्राते पोषन्निहरातिरस्तु इन्द्राणीमासु नारिषु सुपत्ने महमस्रवो न ह्यस्यापरञ्जनजरसामरते पतिः इन्द्रम् वो विस्पतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः। ॐ शमग्निरग्निभिस्करस्तन्नस्तपतु सूर्यः शम्बातो वात्परप अपसृधः यमाय सोमगुम् सुनुत यमाय जुहुता अविः यमगुम्ह यज्ञो गच्छच्चज्ञदूतो अरङ्कृतः प्रजापतेन त्वदेतान्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहमस्तन्नो अस्तु वयगुस्याम पतयोरयेणाम् कयानश्चित्र आभुवदूते सदा वृधः सका कया सष्टया वृता आयङ्गौ पुष्करक्कमे दशनम् मातरम् पुनः पितरम् च वयम् सुवः नमो अस्तु सर्पेभ्यो ये के च पृथिवे मनो ये अन्तरिक्षे ये दिवितेभ्यः सर्पेभ्यो नमः केतुम् कृण्वन्न केतवेपेशो मर्या अपेशे शंषद्विरदायथाः ब्रह्मा देवानाम् पदवी कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् सेनो गृद्रा नागुस्वतिर्वना नागुस्सोमः पवित्र मत्येतिरेभन् सचित्रचित्रम् चितयन्तमस्मे चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् रयिम् पुरवीरम् बृहन्तौ चन्द्रश्चन्द्राभिगृणते इव स्व आदित्याय च सोमाय मङ्गलाय बुधाय च गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः। ॐ शान्तिश्चान्तिश्चान्तिः।